धातूनां गणः शगणी इति दशगणी इति उच्यते तत्र कारान्त पादयः यदि वर्तन्ते खलु ते दशगणाः सः गणः अन्यः अजादीनाम् अकारान्तस्य च तथा ये अकारान्ताः अकारान्तशब्दाः वर्तन्ते तेषां स्त्रीत्वे द्योत्ये स्त्रीत्वं किं द्योतितव्यं तथा टाप् इति प्रत्ययः भवति टाप् इति तत्र टाप् इत्युक्ते चुटु इति टकारः निर्गच्छति हलन्त्यम् इति पकारः कोऽपि निर्गच्छति तत्र अवशिष्यते आ इति टाप् यदि आवश्यकता भवेत् तर्हि दर्शयामि
पुनः एकवारं पृष्ठसङ्ख्या का अस्ति तत्र पृष्ठसङ्ख्या
अजः इति वर्तते पुल्लिङ्गे तस्य मूल प्रातिपदिकं रूपम् अज इति अज प्लस् तत्र टकारस्य चुटुसूत्रेण टकारः इति भवति तस्य लोपः भवति हलन्त्यम् इति सूत्रेण पकारस्यापि लोपः भवति इति संज्ञां कृत्वा अवशिष्यते आ इति अज आ सवर्णदीर्घसन्धिः अजा सुलभतया भवति एडक एवमेव एडक टाप् एडक अश्व टाप् अश्वा चटक चटक इत्येव वक्तव्यं पुल्लिङ्गे चटकः भवति सु आगत्य अत्र सुन टाप् आगत्य मूषिक मूषिकः मूषिका बालः बाला वत्सः वत्सा होडः होडा मन्दा होडा इत्युक्ते तत्र अष्टवर्षात् त्रयोदशवर्षपर्यन्ते बालिकाश्च वर्तन्ते होडा
आङ्ग्लभाषायां किं
मन्दाः विलाताः
आङ्ग्लभाषायां किं
अडोलसेण्ट्
मन्दा विलाता त्रयमपि त्रयमपि तद् वयः प्रतीका तथा मेधा गङ्गा सर्वा
वयप्रतीका मन्दा विलाता मन्दा
मन्दा होडा विलाता मन्दा प्लस् मन्दा
सत्यं परन्तु मन्दा इत्युक्ते मन्दः
मन्दः एव
बुद्धिमन्
तदपि भवति
अनन्तरं विलाता
विलाता विलात विलातः विलातः इति पुल्लिङ्गे भवति
तस्य अर्थः
तस्य अपि होडा तस्य एव
ओ एवं वा ओहो
मेधा मेधशब्दः मेधा श्रद्धां मेधां विषप्रज्ञाम् इत्यादि उच्यते खलु मेधाशब्दः मेधशब्दः
मेधशब्दः
तत्र मेध इत्यवशिष्यते मेध प्लस् टा मेधा गङ्ग इति गङ्गा सर्व सर्व
गङ्ग इति शब्दः
गङ्ग
तर्हि गङ्ग इति प्रातिपदिकं
गङ्ग इत्येव प्रति
गङ्ग ततः गङ्गा
गङ्गा
परन्तु गङ्गाशब्दस्य गङ्गाप्रातिपदिकस्य पुल्लिङ्गरूपं नास्ति
वर्तते गङ्गराज कर्णाटकभाषायां वर्तते गङ्गाः इति कश्चित् राजवंशः वर्तते कर्णाटके ते गङ्ग इत्येव उच्यते गङ्गा इति न अयं गङ्गः गङ्गः इत्येव पुल्लिङ्गे गङ्गराजः गङ्गः इत्यादि
परन्तु भवान् उक्तवान् मेधस् इति मेधस् हलन् हलन्तशब्दः मेधस् एतत्
मेध इति
परन्तु मेधा इति आकारान्तशब्दः परन्तु मेधस् स्वीकुर्मः
चेत् मेधशब्दस्य एव
अपि टाप् भवति
तत्र अजादीना अकारान्तो एव भवति तस्य सकारनिर्गमनानन्तरं मेधः इति मेधः इत्यपि वर्तते उपद्वयं वर्तते मेधस्थिति मेधाः मेधसोमेस इति मेधः इति पुल्लिङ्गः अपि वर्तते उगितश्च उक् इत् च उक् इतः च उगितश्च उक् इत्युक्ते उण् रुल् ऋ ऊरुल् ऋ ऊरुल् ऋ यत्र इत्संज्ञां लभन्ते उगिदन्तात् प्रातिपदिका स्त्रियां नीप् स्यात् उक् इदं इत् अन्तात् उक् इत्युक्ते ऐ उण् रुल् ऋक् उकारान्त ऋकारान्त ऋकारान्त ऋकारान्तशब्दः एव नास्ति उकारान्त ऋकारान्तशब्दाः ये वर्तन्ते तस्मात् प्रातिपदिका नीप् भवति अत्र भवति इति पुल्लिङ्गे भवत् शब्दः भवत् इति अत्रापि अग्रे गत्वा भवान् भवन्तो भवन्तः इति अनन्तः भवति किन्तु प्रातिपदिकावस्थायां भवत इत्येव अतः सर्वनाम शब्दः
अत्र
प्रथमं भवति इति शत्रुप्रदः अन्यः भवन्ति इति तु शत्रुप्रत्ययः भवति इति तु भवत् शब्दः सर्वनामेषु पठितः तद्दिने भवान् भवति इति भवति विक्षान्देः तद् भवति इति तत्र बाधातोर्डवतु इति भा वर्तते भवती भवन्ति तत्र द्वयोरपि प्रकृतिः एक एव भवती भवन्ति द्वयोरपि किन्तु सर्वनामरूपः अन्यत् शत्रन्तरूपः
कृदन्तरूपः
भवति सूत्रमपि अत्र प्रथमं बाधातोर्डवतु इति प्रत्ययागमनेन अत्र भवतु इति प्रथमम् अस्य रूपं भवति भवता भूधातो भवतु इति ऊ वर्तते अत्र उकारस्य उगितश्च अत्र सूत्रः वर्तते खलु तदनुसारेण उकारः इत्संज्ञां लब्ध्वा उकारः गच्छति उकारः गच्छति तदनन्तरं भवत् इति अवशिष्यते अधुना नीप् भवति नीप् नीप् स्त्रियां नीप् नीप् इति नीप् नीष् इति यत्र कुत्रापि आगच्छतु तत्र स्त्रीत्वम् इत्येव स्त्रियां मिलित्वा नीप् नीप् इत्यत्र मकारः कथं गच्छति लशक्को तद्यते सूत्रेण ङकारस्य लोपः भवति अपकारस्य हलन्त्यमिति सूत्रेण तदनन्तरम् अवशिष्यते केवलम् ई वर्तते भवत् ई गुणिताक्षरं भवति 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 त्वम् इत्यर्थः भवति तदनन्तरम् अस्यैव शत्रन्तरूपं भवान् शब्दः अस्यापि मूलप्रकृतौ बहुशब्दवदेव तदनन्तरं शत्रुप्रत्ययान् शत्रु शत्रु इत्युक्ते तत्रापि शत्रुप्रत्यय शत्रु तत्र ऋकारः वर्तते तस्मात् तत्र भवान् शब्दस्यापि भवत् शब्दः वर्तते भवत् भवत् शब्दः शत्रुप्रत्यय भवत् इति मूल मूले भवति नपुंसकलिङ्गे भवत् इति पुल्लिङ्गे भवान् भवति स्त्रीलिङ्गे भवन्ति अधुना उच्यते भवत् इति तत्र नीप् नीप् इत्युक्ते इ तत्र भवन् भवत् भवत् इति तदनन्तरं शत्रु शत्रुप्रत्ययस्य आवृत्त्या वर्तते शत्रु शत्रुता नकारः चप्सुषोर्नित्यम् इति अत्र नकारागमनं कर्तव्यं भवति तद्वत् भवत् भवन्नित्येव स्थापयामः भवतां कृते भवत् इति शत्रः तदनन्तरं तत्र चप्स्युयोनोः इति सूत्रं वर्तते तेन तस्य तकारस्य नकारः भवति भवन् इति भवति भवन् इति भवति तत्र लिखितं वर्तते अधः लिखितं वर्तते भवन् इति भवति तदनन्तरम् ई भवन् भवन् तदनन्तरं शत्रु भवन् शत्रु पुनः ई एवम् एवं लिखितव्यं भवन् शत्रु इ भवन् नकारात् शत्रुप्रत्ययात् तकारः आगमिष्यति तदनन्तरं भवन्ति अत्र ऋकारान्त इति द्योत्ये प्रथमं शत्रुन्तः गृहीतव्या भवति बहुशब्दस्य प्रथमं तत्र नुडागमः भवति अत्र नुट् भवति भवन् भवति अनन्तरं कृदन्तस्य शत्रुप्रत्ययात् त आगमिष्यति भवन् भवन्ति इति भवति इ भवन्ति शत्रुप्रत्ययान्तस्य स्त्रीलिङ्गे कथं भवति इति शत्रु इत्युक्ते शत्रुप्रत्ययः तृ इति यदि भवन्ति एकवचनं भवन्ति तदनन्तरं नदी शब्दोद्भवति भवन्ती भवन्त्यौ भवन्त्यः तत्र शत्रुप्रत्ययः वर्तमान न एनिमि शत्रुः इति न शत्रु तृ न शत्रु ओहो एवमेव एवमेव पचन्ति दीव्यन्ति भवन्ति एव दीव्यन्ति पचन्ति
तदेव
एवमेव भवन्ति वत् तदनन्तरं टिड्ढाणन् द्वयसत् दग्नै मात्र तयप् ठक् ञक् कञ् कोरपः एते सर्वे अपि प्रत्ययाः
अनुपसर्जनं यत् टिदादि तदन्तं यदन्तं प्रातिपदिकं ततः स्त्रिया मीप्स्या अत्र टिड् ढाणञ् द्वयसच् दघ्नञ् मात्रच् तयप् ठक् ठञ् कञ् क्वरप् क्वरप् इति प्रत्ययाः अत्र कुरुचरी इत्यादयः सर्वेपि एतत् प्रत्ययसहिता एव एभिः प्रत्ययैः सहिता एव वर्तन्ते तथा भाव्यं यदि एकैकस्य प्रत्ययस्य ग्रहणे तत्र पूर्वं गच्छामः चेत् कष्टं भवति अतः अत्र कुरुचरी इति वर्तते कुरुचर इति शब्दः कुरुचर अत्र चरट् प्रत्ययः कुरुचर इत्यत्र चरट् प्रत्ययः आगत्य कुरुचर इति भवति चरट् इति ट वर्तते अन्ते ततः स टित् टिड्ढाण् इत्यत्र वर्तते खलु टिड्ढाण् इत्युक्ते टित् इति टकार इत्संज्ञा रूपः इति तत्र चरट् इति प्रत्यये अन्ते ट वर्तते तस्मात् चरेष्टः चरेष्टः तत्र सूत्रं वर्तते चरेष्टसूत्रेण तत्र चरः इति भवति कुरुचर इति भवति तत्र पर्यन्तं स्थापितव्यम् अस्माभिः पूर्वे यदि गच्छामः एवं दिनद्वये एकमेव सूत्रं कुरुचर इति सिद्धवत् कृत्वा कुरुचर इति सिद्धं तत्र ङी कृत्वा
ङीपेव
तर्हि ङीष् ङीप् इति सूत्रद्वयं वर्तते तत् ङीप् वा भवतु ङीष् वा भवतु द्वयमपि परिणामः एक एव ङीष् इति ङीष् इति ङीप् इति ङीप् आगत्य कुरुचरी कुरुभूमौ चरति इत्यर्थः कुरुचरी कुरुचरी कुरु इति देशनाम नदट् नदी अत्रापि नदट् इति मूलशब्दस्वरूपं नदट् तस्य नदी इति रूपं भवति नदट् तदपि टिड् तदेव देवट् देवी नदः इति पुल्लिङ्ग देवः नदः नदः देवः इति पुल्लिङ्गरूपं
कथं
ङीप् आगच्छति खलु नदट् इति वर्तते टन्त्यरूपत्वात् नद इति वर्तते नद प्लस् इ नद् नद् प्लस् इ
नदी
नद् नद् एव नद् 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 इति प्रातिपदिकं वर्तते पुल्लिङ्गे नदः इति भवति श्रीलिङ्गे नदी इति भवति अट् अट् इति टकार टकार इति संज्ञका अट् इति प्रत्ययः अट् प्रत्ययः सः तदा दकारप्रातिपदिकं कथं भवति अट् खलु वर्तते नद् इति वर्तते तस्य अट् अकारान्तं कर्तुम् अट् आगमिष्यति यदि पुल्लिङ्गे अट् आगमिष्यति तदा स्त्रीलिङ्गे ङीप् आगमिष्यति नद् देव् द्यु धातो स देव् इति रूपं देव् इति
सत्यं
न देव् देव् इत्येव
हलन्तशब्दः भवति
कथं भवति देवीति मूलम् अनन्त भवेत् सा देव इति तत्र अतः अजादिष्टापि अकारान्त इति अजादिष्टा सन्दर्भे एव उगितश्च अनन्तरं तत्र हलन्तस्य अथवा स्वरान्तस्य इति विभागः न वर्तते देव इति हलन्तोपि भवतु किं केवलं प्रातिपदिकस्थाने हलन्तरूपेण वर्तते किन्तु हलन्तः न यथा पुल्लिङ्गे सः एव पुल्लिङ्गः अकारान्तः भवति स्त्रीलिङ्गे ईकारान्तः भवति
परन्तु प्रातिपदिकम् इत्युक्ते प्रत्ययः नास्ति
प्रत्ययः नास्ति केवलं एवं वर्तते देव
यथा द्यु इति वर्तते एवमेव द्यु इत्येव तस्यैव देव् इति भवति द्यु इत्यस्य गुणरूपेण द्यु इति धातुः द्युधातुः देव् भवति पुल्लिङ्गे अट् प्रत्ययेन देवः भवति देव इति भवति तदनन्तरं सु आगत्य देवः भवति स्त्रीलिङ्गे देव् ई देवी भवति ङीपागत्य का सन्देहः
न सन्देहः इत्युक्ते अहं यदा विभक्तिप्रत्ययान् पाठयामि प्रातिपदिकं किम् इत्युक्ते देव इति प्रातिपदिकम् इति पाठयामि
सत्यं तत्र देव इति एव प्रातिपदिकं
भवान् वदति देव इति
अट् प्रत्ययानन्तरं पुल्लिङ्गे पुल्लिङ्गे पाठयति खलु भवती पुल्लिङ्गे देवशब्दस्य अटागमनानन्तरं देव इत्येव प्रातिपदिकं पुल्लिङ्गे
प्रातिपदिकम् इत्युक्ते प्रत्ययः नास्ति अप्रत्ययः शब्दः
एवं कृतद्धिताश्च तद्धितप्रत्ययः खलु अतः अट् इति कृतद्धिताश्च तत्रैव उक्तं कृतद्धितान्ताः प्रत्ययान्ताः अपि प्रातिपदिकत्वं लभन्ते तत् सर्वमपि यत् सर्वे शब्दाः धातुमूलाः समुत्पन्नाः तद्धितान्ताः एव भवन्ति नदति नदति इति नद् नद् गतौ गच्छति एवं तत्र भवत्या अट् प्रत्ययानन्तरस्य रूपमेव निमेष्य देव इति सुप्रत्ययः देव इति तत्र न कोऽपि दोषः देव इति न निवेष्टव्यं यदि देव इति निवेष्यते तर्हि तत्र अडागमः कुत्रतः आगतः इति दर्शितव्यं भवति भवत्या राम तत्रापि राम इत्येव अत्र प्रत्ययः तत्रापि धातुमूलशब्दसम्बन्ध उत्पन्नानां शब्दानाम् एवमेव स्थितिः तद्धितान्तानां प्रातिपदिकत्वं वर्तते खलु देव् इति भवति देव् इति स्थिते तस्य स्त्रियां द्योत्ये ङी पुल्लिङ्गे टच् प्रत्ययः
तत्र अर्थवत् अधातुः अप्रत्ययः इति वदामः अप्रत्ययः इत्युक्ते सुबन्तप्रत्ययः नास्ति वा सुबन्तवा
तत्रैव उक्तम् अन्ये केऽपि प्रत्ययाः भवेयुः तदपि तत्र निराशकृताः भवन्ति किन्तु कृतद्धितसमासाश्च समासान्ते तद्धिते कृतान्ते प्रत्यये परेपि प्रातिपदिकत्वं वर्तते तत्र सूत्रद्वयं वर्तते खलु तत्र सूत्रद्वयं मिलित्वा एव तस्य अर्थः तत्र प्रतिपादनीयः अर्थोदात्तप्रत्ययः प्रातिपदिकं कृतद्धितसमासाश्च इति सूत्रद्वयं मिलित्वा प्रातिपदिकत्वस्य अर्थः प्रतिपादनीयः तेषामपि एवमेव वर्तते देवी सौपर्णेयी तत्रापि सुपर्णा इति तस्य आदिवृद्धिः कथं भवति इत्यादि अपि लाङ्ग् प्रासेस् अस्माभिः
सौपर्णेयि इति स्थापयित्वा ङी प्रत्ययं तेन सह मेलयित्वा सौपर्णेयि अत्र करणीयं ता प्रत्ययं स्त्रीलिङ्गे सौपर्णेयि ऐन्द्री ऐन्द्र ई औच् ई ऊरुद्वयस् ई ऊयुर्द्वयस इति न स्थापनीयम् ऊरुद्वयस् ई ऊरुदघ्न ई ऊरुमात्र ई पञ्चतै ई आक्षिक् ई लावणिक् ई यादृक् यादृक् अत्र ककारस्य यादृश् इत्येव यादृश् ई इत्वर् ई स्त्रीणि पौंसि शाक्तीति याष्टीति आढ्यङ्करणि तरुणी तलुन् तरुन् इति तलुन् द्वयोपि एक एव अर्थः तरुणिरेव युवतिरेव
अत्र
समञ्जः
सम्यक् अस्ति परन्तु निप् प्रत्ययः निप् 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 प्रत्ययः टाप् नास्ति
टाप् नास्ति
नास्ति तर्हि नदी अस्ति चेत् नदा न नदा नास्ति इति कथं तत्र अजादिगणः नास्ति अतः
यत् सूत्रे उक्तं तदेव ग्राह्यम् अत्र एवं अधुना अकारान्तस्य इत्युक्तं किन्तु तत्र मूलरूपेण नद् इति तत्र अकारान्तं न वर्तते नद् इति प्रातिपदिकरूपं तत् सङ्गीप आगच्छति कः संशयः यदि अकारान्तः भवेत् तदा टाप् आगन्तव्यं भवति बाल बाल इति तत्र बाल् इति न बाल इत्येव अजा इत्येव उपरि उपरि अत्र नद् देव् इत्येव अत्र अकारान् प्रयोगे कर्तव्ये तस्य अहत्वं नास्ति अत्र देव् इत्येव अत एव मया उक्तम् औत्स् ऐन्द्र इत्येव उक्तम् ऐन्द्र औत्स इत्यादि न उक्तम् देव् इति स्वीकरणीयम् अत्र देवट् इति केवलं चित् इति द्योतनार्थम् एवम् उक्तं देव् इत्येव तत्र अजा इत्येव अकारान्तशब्द इत्येव निवेश्य तत्र अजा इत्येव अज् इति न अज् इति न अज् इति न
तत्र प्रातिपदिकम्
अज एव अकारान्तम् आगन्तव्यं खलु टिड् वर्तते अत्रैव नदट् देवट् चरण् इति त्रयः पचाद्यजन्तात् टितः टितः अत्र एव उक्तं स्त्रीभ्यो ढक् इति ढक् प्रत्ययः भवति सौपर्णेयि इत्यादि अत्र टिड् ढाण् द्वयसज् द्वयसज् इति ऊरुद्वयसि ऊरुद्वयस् तत्र द्वयसज् आमेले ऊरुदघ्नि इत्यत् दघ्नन् ऊरुमात्रि इत्यत् मात्र मात्रच् पञ्चतै इत्यत्र तयप् आक्षिकी इत्यत्र ठक् लावणिकी द्वयोरपि ठगेव
यादृशी कञ् इत्वरी कञ् एवमेव त्रीणी पौंसि शाक्तिकी शाष्टिकी अड्डिकी तरुणी तत्र पर्यन्तं सर्वं यञश्च यजन्ता स्त्रियां नीप् स्यात् यञ् यञ् इत्युक्ते यकारान्ता इति य अन्त्ये यकारः यत्र वर्तते तद् यजन्तः इय यञश्च यञश्च सूत्रे यकारान्त इति य अन्ते यस्य वर्तते यञ् इत्युक्ते नत्र नत्र न प्रत्याहारः अत्र ञ इति तस्य यकारग्रहणार्थं स्थितम् अक्षरं यञ् इत्युक्ते य इति यकारान्त इति यकारान्त स्त्रियां ईप्स्यात् ये यकारान्तशब्दाः भवन्ति स्त्रीलिङ्गे तत्र ङीप् आगच्छति प्रथमं गार्ग्य इति वर्तते तस्य यस्य तत्र गार्गी शब्दं निवेशयामि गर्ग इति मूलं गर्गस्य गोत्रे उत्पन्नं इत्यादि कृत्वा गार्ग्य गार्ग्य इति वर्तते अत्र गार्ग्य इति पुल्लिङ्गे गार्ग्य इति भवति मूले गार्ग्य इष्टे इत्येव गार्ग्य इत्येव अत्र अन्ते यकारः वर्तते यञश्च इति सूत्रस्य प्रस्तावः अत्र भवति प्रवेशः अतः अस्य यकारान्तत्वात् तदनन्तरम् अत्र पूर्वे यस्येच्छित इति सूत्रेण गार्ग्य गार्ग्य इत्येव भवति तदनन्तरं यस्येच्छ सूत्रेण तस्य अकारस्य लोपेन गार्ग्य इति स्थितः भवति गार्ग्य इति गार्ग्य तदनन्तरं नी नीप् इत्युक्ते ईकारः गार्गी तस्य अत्र विकल्पः वर्तते यकारस्य यकारस्यापि रूपो भवति रूपत्रयं वर्तते गार्गीशब्दस्य गार्गी गार्गी गार्गायणी गार्ग्यायणि रूपचतुर्थे अत्र अग्रे आगच्छति अयणी शब्दः हलस्तद्धितस्य इति अग्रे सूत्रं वर्तते हलस्तद्धितस्य अकारलोपं कृत्वा यस्येति च इति सूत्रेण अस्य गार्ग्य गार्ग्य इत्यत्र गार्ग्य इत्यत्र अकारस्य लोपः भवति गार्ग्य इति भवति तदनन्तरं हलस्तद्धितस्य हलःपरस्य तद्धित यकारस्य उपधाभूतस्य लोपः इति यकारस्यापि लोपः भवति विकल्प प्रथमं गार्ग्य इति यस्येचित इति लोपानन्तरं गार्ग्य भवति तदनन्तरं हलस्तद्धितस्य हलस्तद्धितस्य इति सूत्रेण हलस्तद्धितस्य इति सूत्रेण यकारस्यापि लोपः भवति गार्ग् इति भवति हलस्तद्धितसूत्रेण गार्ग्य इत्यस्य गार्ग् इति रूपं भवति तदनन्तरं ईभागत्य गार्गी अत्र गार्गी गार्गी इति रूपद्वयं प्राचांष्प तद्धितः इति तत्रापि अत्रापि विकल्प एव प्राचाम् इत्युक्तं तद्दिने विकल्पे के के शब्दाः आगच्छन्ति इत्युक्तं तत्र परे प्राचां तथा शाकटायनस्य इत्यादि अन्य ऋषीणां नामानि यदा सूत्रे आगच्छन्ति तदपि विकल्पः इत्येव अर्थः यत्र सूत्रे एव शाकल्यस्य इत्यादि पाणिनिं त्यक्त्वा अन्येषां यदि नाम आगच्छति तत् सूत्रे यद् विषयम् उक्तं तद् तस्यापि विकल्प इत्येव अर्थः तत्र लोपशाकल्यस्य इति भवति एचो यव इत्यत्र अतः एव तत्र पाणिनीयमतम् उक्त्वा ऐ आदेशः भवति लोपः इति शाकल्यमस्येन एकारस्य लोपः भवति एवं प्राचाम् अत्र प्राचाम् इत्युक्ते प्राचीनानां मते प्राचाम् इत्युक्ते प्राचीनानां मते स्फ तद्धितः यञन्तात् भूवास्य स च तद्धितः गार्गे इति यद्वर्तते तद् यञन्तम् इति निर्दिष्टं तत्र यञन्त यत्र वर्तते तस्य ष्प इति अन्यः आदेशः भवति यञन्तस्य तत्र वदति नेक्स्ट् तत्र सिद्धगौरादिभ्यः अत्र वर्णनं वर्तते ष्प इति अधुना गार्ग्यशब्दस्य तत्रापि आयनेय फख छड घां प्रत्ययादीनाम् इति अन्यत् सूत्रं वर्तते तेन गार्ग्यशब्दस्य अयन् आयन् भवति दाक्षायणी कात्यायनी इत्यादि सर्वेषामपि आयन् पदः प्रत्ययः आगमिष्यति अत्र आयन् प्रत्ययः आगतः इति मनसि कृत्वा यजन्तात् स्फोवा स्यात् सः तद्धितः तद्धितरूपेण स्फ इति एकः प्रत्ययः आगमिष्यति तत्र षकारस्य लोपः भवति षः प्रत्ययः तत्रापि सूत्रं वर्तते अन्यत् प्रत्ययः इति यथावत् भवतु अन्ततो गत्वा यकारान्तस्य यकारान्तः यः शब्दः वर्तते तस्य ष्प इति भवति अन्ते ष्प आदेशः भवति इति मनसि निवेशितव्यम् अधुना गार्ग्यायन् इत्यत्र गार्ग्यायन् इत्यत्र अन्ते षकार इति संज्ञा भूतः य वर्तते इति अस्माभिः कल्पनीयं षिद् नेक्स्ट् षित् गौरादिभ्यः षकार इति संज्ञकः तथा गौरादिशब्दः गौरादिगणः गौरादिभ्यः गौर इत्यादिपदानां स्त्रियां ङीष् स्यात् तत्र ङीष् ङीप् इति न ङीष् गौरी अत्र वर्तते षित् गौराभ्यः षिद् इत्युक्ते यत्र षकारः इत्संज्ञां लभते तत्र उक्तं षकारः कुत्र इत्संज्ञां लभते पूर्वप्राचांश्वः तद्धितः इति सूत्रे उक्तं यकारान्ताः ये शब्दाः वर्तन्ते ते सर्वे षिद् षकार इत्संज्ञकाः यकारान्ताः ये शब्दाः वर्तन्ते तेषाम् उपरि प्राचांष्प तद्धितः इति सूत्रेण षकारादेशः ष्फकारादेशः अनन्तरं ते सर्वे शब्दाः षिद् भवन्ति अत्र षकार इति संज्ञकाः भवन्ति षकार इति संज्ञकाः भवन्ति यकारान्तशब्दाः सर्वे ष इति संज्ञकाः षकार इति संज्ञकशब्दाः भवन्ति ज्ञातं वा तेषां तथा गौरादिपदानां गौरादि इत्युक्ते गौरादिगणं गणे पठिताः नर्तकी इत्यादि वर्तते खलु अत्रैव वर्तन्ते एतेषामपि
ನೀಶ್ ಪ್ರತ್ಯಯ ಭವತಿ. ಗಾರ್ಗಾಯನ್ ಇದೆ ಶ ತತ್ರ ಆಗಚ್ಚತಿ ತದನಂತರಂ ತಸ್ಯ ಇತ್ ಸಂಜ್ಞಾ ಭವತಿ. ಶ ಪ್ರತ್ಯಯ ಇತಿ ಸೂತ್ರ ವರ್ತತೆ. ಅತ್ರ ಸೂತ್ರದ್ವಯಸ್ಯ ಅವಶ್ಯಕತಾ ಆಸೀತ್, ಕಿಂತು ಲಘುಸಿದ್ಧಾಂತ ವರದರಾಜೇನ ಕಿಮರ್ಥಂ ಪರಿತ್ಯಕ್ತೆ ದೇ ಸೂತ್ರ ಇತಿ ನ ಜಾನಾಮಿ ಅಹಂ. ಅತ್ರ ಪ್ರಾಚಾಂಶ್ವಾ ತದ್ಧಿತಾ ಇತ್ಯದಾನಂತರಂ ಶ ಪ್ರತ್ಯಯ ಇತಿ ಏಕಾ ಸೂತ್ರ ತತ್ರ ಸಿದ್ಧಾಂತಕೋಮದೋ ವರ್ತತೆ ಶಪ್ರತ್ಯಯ ಇತಿ ದರ್ಶಿತ ವಾ ತತ್ರ ಅಗ್ರೆ ಅತ್ರ ನ ದರ್ಶಿತ ಅತ್ರ ದರ್ಶಿತ ವಾ ಹಾಂ ಅತ್ರ ದರ್ಶಿತ ಶಪ್ರತ್ಯಯಸ್ಯ ತದ್ಧಿತ ಸಂಜ್ಞಾಯ ಅತ್ರ ನ ದರ್ಶಿತ ತಸ್ಮಿನ್ ಪುಸ್ತಕೆ ಹಾಂ ತಸ್ಮಿನ್ ಪುಸ್ತಕೆ ವರ್ತತೆ ಅತ್ರ ನ ವರ್ತತೆ ಅತ್ರ ಶಪ್ರತ್ಯಯಸ್ಯ ವಿಷಯ ವರ್ತತೆ ಕಿಂತು ತದ್ಧಿತ ಸಂಜ್ಞಾಯ ಪ್ರಯೋಜನ ತಸ್ಮಿನೇ ಯಸ್ಯೇತಿ ಇಕಾರಲೋಪಸ್ಯ ಆದಿ ವಿಷಯ ಉಕ್ತಂ. ತದನಂತರಂ ಆಯನೇಯಯ ಫಡ ಖ ಚ ಘ ಪ್ರತ್ಯಯಾದೀನಾಂ ಇತಿ ಸೂತ್ರೇಣ ಆಯನ್ ಏಯ್ ಈ ಇತಿ ಪ್ರತ್ಯಯಃ ಕ್ರಮೇಣ ಖ ಫ ಚಡಾನಾಂ ಭವತಿ ಇತಿ ತತ್ರ ಸಿದ್ಧಾಂತಕೋಮದೋ ವರ್ತತೆ. ತತ್ಸತ್ವಂ ಅಸ್ತೀತಿ ಮತ್ವಾ ಅಧುನಾ ಅಸ್ಮಾಭಿಃ ಗಾರ್ಗೀ ಗಾರ್ಗ್ಯಃ ಆಸೀತ್ ಸಾ ಗಾರ್ಗಾಯನ್ ಪರ್ಯಂತಃ ಜಾತಃ ಇತಿ ಮತ್ವಾ ಗಾರ್ಗಾಯನ್ ಪ್ಲಸ್ ನೀಶ್ ಗಾರ್ಗಾಯಿನಿ ಅಟ್ಕುಪ್ವಾಂಗ್ನು ಅಪಿ ಗಾರ್ಗಾಯಿಣಿ ಹಾಂ ಅಟ್ಕುಪ್ವಾಂಗ್
ಹಾಂ
ಗಾರ್ಗ್ಯಾಯನ್ ನಿತ್ಯ ಪದಮಿತಿ ಮನಸ್ಸಿ ನಿವೇಶಿತವ್ಯ ಮಾತ್ರ. ಗಾರ್ಗ್ಯಾಯನ್ ಇತಿ ಪದ ಶಬ್ದ ವರ್ತತೆ ತಸ್ಯ ನೀಶ್ ಪ್ರತ್ಯಯ ಆಗಚ್ಚತಿ ಗಾರ್ಗ್ಯಾಯನಿ ಇತಿ. ಗಾರ್ಗ್ಯಾಯನ್ ಇತಿ ಕಥಂ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಪ್ರಥಮಂ ಗರ್ಗ ಪಿತಾ ತಸ್ಯ ಅಪತ್ಯಾರ್ಥೆ ಯಕಾರ ಎನ್ ಅಪತ್ಯಾರ್ಥೆ ಎನ್ ಗಾರ್ಗ್ಯ ತಸ್ಯ ಪುನಃ ಯಕಾರಸ್ಯ ಹಲಸ್ತದ್ಧಿತ ಇತಿ ಸೂತ್ರೇಣ ತಥಾ ಪ್ರಾಚಾಂಶ್ವ ತದ್ಧಿತ ಇತಿ ಇತ್ಯೇದ ತತ್ರ ಪುನಃ ಪಾದೇಶ ಪಾದೇಶ ಗಾರ್ಗ್ಯ ಇತ್ಯತ್ರ ಯಕಾರಲೋಪ ಹಲಸ್ತದ್ಧಿತ ಇತಿ ಸೂತ್ರೇಣ ಯಕಾರಲೋಪೋಪಿ ಭವತಿ ತದಪಿ ವಿಕಲ್ಪ ಇವ ಗಾರ್ಗಿ ಗಾರ್ಗ್ ಇತ್ಯಪಿ ಭವತಿ ಗಾರ್ಗಿ ಇತ್ಯಪಿ ಭವತಿ. ಯಸ್ಯೇತಿ ಇತಿ ಸೂತ್ರೇಣ ಅಕಾರಸ್ಯ ಲೋಪೆ ಗಾರ್ಗ್ಯ ಇತಿ ಗಾರ್ಗ್ಯ ಇತಿ. ತದನಂತರಂ ಹಲಸ್ತದ್ಧಿತಸ್ಯ ಇತಿ ಸೂತ್ರೇಣ ಗಾರ್ಗ್ ಇತಿ ಯಕಾರಸ್ಯಾಪಿ ಲೋಪೆ. ತದನಂತರಂ ಯಾಯನೇಯ ಇತಿ ಸೂತ್ರೇಣ ಗಾರ್ಗಾಯನ್ ಇತಿ ತದನಂತರಂ ನೀ ಗಾರ್ಗ್ಯಾಯಣಿ ನರ್ತಕ್ ಈ ನರ್ತಕಿ ಗೌರ್ ಈ ಗೌರಿ ಅನಡುಹ್ ಈ ಅನಡ್ವಾಹ್ ಈ ಅನಡ್ವಾಹಿ ಇತಿ ಆಕೃತಿಗಣ. ಆಕೃತಿಗಣ ಇತ್ಯುಕ್ತೆ ತತ್ರ ನಿರ್ದಿಷ್ಟತೆಯ ವ್ಯಾಕರಣಸ್ಯ ನಿಯಮಾನುಸಾರೇಣ ತಸ್ಯ ರೂಪಂ ಸಿದ್ಧಂ ನ ಭವತಿ ಯಥಾ ಮಾರ್ತಂಡಃ ಇತ್ಯಾದಿ ವರ್ತತೆ ಖಲು ಮಾರ್ತಾಂಡ ತತ್ರ ಸವರ್ಣದೀರ್ಘ ಸಂತು ಮಾರ್ತಾಂಡ ಮಾರ್ತಂಡ ಇತಿ ಪೂರ್ವಸವರ್ಣ ಪೂರ್ವಸವರ್ಣ ಕೃತ ಮಾರ್ತಂಡ ಇತಿ ರೂಪಂ ಕೃತ ಕಿಂತು ಮಾರ್ತಾಂಡ ಇತಿ ಭವೇತ್ ಕಿಂತು ಮಾರ್ತಂಡ ಇತ್ಯೇವ ಏತಾನಿ ಸರ್ವಾಣಿ ಅಪಿ ಆಕೃತಿಗಣ. ಆಕೃತಿಗಣ ಇತ್ಯುಕ್ತೆ ವ್ಯವಹಾರೇ ಯಥಾಸ್ಥಿತಸ್ಯ ತತ್ರ ಸ್ವೀಕರಣ ವ್ಯಾಕರಣ ನಿಯಮಾನುಸಾರಂ ತಸ್ಯ ರೂಪಂ ನ ಭವತಿ ಇತ್ಯರ್ಥಃ. ತಾನೇ ಸರ್ವಾಣಿ ಅಪಿ ಆಕೃತಿಗಣಃ ಇತಿ ಏಕಸ್ಮಿನ್ ಗಣೇ ಕ್ಷಿಪಂತಿ ಅದೇ. यथा बेङ्गलोर् इति वदन्ति बेङ्गलोर् इति कथम् लूरु इति बेङ्गलोर् इति सिद्धं रूपम् एवं कृत्वा येषां रूपाणि व्यवहारे सिद्धानि एव उपयुज्यन्ते तानि सर्वाणि आकृतिगणत्वेन स्वीक्रियन्ते. विश्वामित्रः भवेत् किन्तु विश्वामित्रः तत्र अमित्रो वा मित्रो वा सः ऋषिः विश्वस्य मित्रोर्वा मित्रो वा मित्र एव किन्तु शब्दे तु विश्वामित्र इति वर्तते तत्र व्यवहारे एव प्रमाणं व्यवहारे स्वीकृतानि पदानि आकृतिगणत्वेन स्वीक्रियन्ते तत्र व्याकरणीयनियमानुसरणं न भवति आकृतिगणो अयं वयसि प्रथमे प्रथमयो वाचिनः अदन्ता स्त्रियां नीप् स्यात् प्रथमवयोवाचिनः अदन्ता स्त्रियां नीप् स्यात् प्रथमवयः वयसः विभागः दुरूपः वर्तते बालकौमारे इति पञ्चावस्थाशरीर इत्यवसरे वयश्चतुष्टयम् अन्यत्र वयस् त्रितयं वयस्त्रयं बालः यौवन अथवा बालः यौवन वार्धक्य इति अत्र एवं स्थापयित्वा अवस्थात्रयमिति स्थापयित्वा अवस्थात्रयमिति स्थापयित्वा प्रथमे वयसि प्रथमे प्रथमवयसि वयसः विभागः द्विरूपः वर्तते एका वयस्था अवस्थाचतुष्टयमिति अवस्थात्रयमिति अत्र अवस्थात्रयमिति निमेष्य अत्र वयसि प्रथमे इत्युक्तं कौमारभागपर्यन्तम् एक एव वयः बाल्यं बाल्यम् अथवा कौमारपर्यन्तं बाल्यं तत्र चतुष्टयविभागे बाल्यं कौमारमिति तत्र द्वयं भवति अत्र एवं न तत्र कुमारत्वम् अवस्थाविशेषः कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि कैशोरम् आपञ्चाशद् यौवनं तु तदपरं तत्रैव वयस् त्रयं वर्तते वयोविभागः यौवनपर्यन्तमेव विभागत्रयं वर्तते बाल्य पौगण्ड कौमार कैशोर इति अत्र तत्र वयसि प्रथमे अस्य सम्बन्धः नास्ति अत्र वयसि प्रथमे इति कुमारभावः कुमार इति पर्यन्तं स्त्रियाङ्गीप् स्यात् कुमार कुमारी कुमारशब्दस्य उपरि ङीपागमनन्तरं कुमारी
अतः वृद्धि न वृद्धा अग्रिम
तत्र न भवति चरमे वयसि तु टाबे चरमे चरमे अजाद्यतस्थापिति चरमे वयसि वृद्धा द्विगोः अदन्तात् द्विगोः ङीप् स्यात् अकारान्तात् यत्र द्विगुसमासः भवति अकारान्तद्विगुसमासे ङीप् भवति त्रिलोक त्रयाणां लोकानां समाहारः त्रिलोकम् इति वर्तते अकारान्तत्वात् त्रि इति जुगुसमासः वर्तते तत्र ङीप् त्रिलोकी अजायित्वात् त्रिफला त्रिफला इत्यत्रापि जुगुसमासः एव किन्तु अस्य अदन्तात् जुगु अजादित्वात् तत्र फलशब्दः यद्वर्तते अजादिगणपठितत्वात् फलशब्दस्य अत्र अस्य प्रवेशः नास्ति अस्य सूत्रस्य प्रवेशः नास्ति अतः टाप् एव भवति त्रिफला इत्यत्र टाप् एव यतः फलशब्दस्य अजादिगणे पठितत्वात्
तर्हि
न
न आगच्छति तत्र गणपाठ एव द्रष्टव्या त्रिणीका सेना अत्रापि एवमेव ओ वर्णाद् अनुदात्तात् उपदात्तात्तोन्नः येनी एता रोहिणी रोहिता वर्णवादि अत्र अनुदात्त उदात्त स्वरित प्रयोगाः भवन्ति किन्तु प्राचीनकाले वर्णानाम् उच्चारणावकाशे उदात्त अनुदात्त स्वरितादिस्वरूपम् आसीत् अधुना सर्वम् एकम् अत्र यद् अनुदात्तमिति सूत्रकारैरुच्यते तदनुदात्तम् इति अस्माभिः भाव्यम् यत् स्वरितम् इत्युच्यते तत् स्वरितम् इति भाव्यं यथा प्रतिज्ञानासिक्याः पाणिनीयाः हा अत्रापि वर्णवाचीयः अनुदान्तः अदान्तः त उपधः तदन्तात् अनुपसर्जनात् प्रातिपदिकाद्वा ङीप् स्यात् तकारस्य नकारादेशः वर्णवाचि वर्ण इति कलर् वर्णशब्दस्य कलर् इति वर्णवाचि या अनुदात्तः अत्र अनुदात्तः इति तत्काले तस्य उदात्तत्वेन अनुदात्तत्वेन उच्चारणं स्यात् अधुना केवलम् अनुदात्तम् इति नामधेयमात्रं त उपध तकार उपध उपध इति ज्ञातं वा तत्र उपधादीर्घ अलोन्त्यात् पूर्व उपधा अत्र पूर्वं वर्तते तत्र सन्धि सुबन्तप्रकरणे वर्तते अलोन्त्यात् पूर्व उपधा लिखितं लिखन्तु लिखन्तु अलोन्त्यात् पूर्व उपधा अलोन्त्यात् पूर्व अलोन्त्यात् अलोन्त्यात् पूर्व उपधा कुत्रापि शब्दस्वरूपस्य अन्ते यः अल् वर्तते अल् इति समस्ताक्षराणि अल् इत्युक्ते समस्तानि अक्षराणि अकारतः लकारपर्यन्तं तस्य पूर्वे स्थितः अन्त्यात् अलः पूर्वः अन्ते उपधा यथा राम इत्युक्ते रामशब्दस्य अन्ते अ वर्तते तत्र म इति उपधा सम्यक्त्या वर्तते उपान्त्यम् उपान्त्ये यः स्थितः तद् उपधा शब्दं लभते ता उपधा तदन्तात् नीप् तकारस्य नकारादेशः अत्रापि विकल्पः ईन् पूर्वम् एत इति वर्तते एत इति तत्र नकारादेशे कृते एनी इति ङीप् आगमनं भवति नो चेत् टाप् एता इति रोहिणी रोहिता एनी इति चित्रवर्णः एनी एता इत्युक्ते चित्रवर्णः इत्यर्थः चित्रवर्णः रोहिणी रोहिता इत्युक्ते रक्तवर्णः चित्र मिश्रवर्णः चित्रवर्णः इति वर्ण एव भवितव्यं रोहिणी रोहिता द्वयोरपि अर्थः एक एव रक्तवर्णः इति रोहितो लोहितो रक्तः शोणः शोणितश्विः इति अमरकोशे वर्तते
अत्रापि
उदन्तात् गुणवाचिनो वा नी स्यात् सुलभम् एतत् सर्वम् ओतो गुणवचनात् उदन्तात् गुणवाचिनः उत् अन्ते उकारान्त हा गुणवाचकः गुणवाचकः तत्र वस्तु इति न गुण मृदु इति गुणं मृदुस्वभावः इति उच्यते खलु अतः
अतः लघु लघ्वी
हा लघु लघ्वी गुणवाचकत्वात् उदा उकारान्तगुणवाचकशब्दाः ये भवन्ति ते स्त्रीप्रत्ययद्योत्ये ङीष् भवन्ति मृदुः मृद्वी साधु साध्वी बह्वादिभ्यश्च येभ्यो वा ङीष् स्यात् बहु आदि ये शब्दाः वर्तन्ते तेषामपि स्त्री दोत्ते ङीष् भवति बहु रात्र रात्रशब्दस्य ङीष् रात्री इति भवति शकट इति शकटि रात्रं पुल्लिङ्ग नपुंसकलिङ्ग बहुरात्रं हा रात्रिः रात्रिः द्वयमपि स्त्रीलिङ्ग एव हा रात्रिः अत्र वा इति निविष्टमतः रात्रि इति शब्दमेव निवेश्य अत्र उच्यते हा बह्वादिभ्य आदिशब्दः वर्तते खलु बह्वादिगणः एव आदि यत्र यत्र आदिशब्दः आगच्छति सूत्रे गणः इति मन्तव्यं गणः इति वक्तव्यं बह्वादिगणः इति रात्रिः इति हा स्त्रीलिङ्गरूपः एव हा सिद्धरूपः रात्रिः तत्र रात्री इति ङीष्प्रत्ययोपि भवति अन्यदपि वर्तते रात्रम् इत्यपि वर्तते रात्रम् इत्यपि तत्र रात् रात् इति मूलधातुमूलः शब्दः नपुंसकलिङ्गेपि स्थितं वर्तते रूपसुन्दरा इत्यपि भवति सुन्दरी इत्यपि भवति नीट् अपि भवति अत्र बहुशः न वर्तते इति मन्ये लघुसिद्धान्तकौमुदौ न वर्तते गोपः अत्र एवं वर्तते खलु तत्र तस्य पत्नी इति अर्थे ङीष् भवति जातिवाचकत्वे गोपा अत्र लिखितम् अत्र पुञ्योगादाख्यायां पुरुषसम्बन्धे जाते ङीभवति यः पुमाख्या पुयोगा स्त्रियां वर्तते ततो ङीष् गोपस्य स्त्री गोपी तत्र अत्र अग्रे भवेत् गोपा इति नौकाकारिका अत्र गोपालिका इत्यपि वर्तते खलु गोपा इत्यपि भवति गोपा अत्र वर्तते एव न वा न स्मरामि अग्रे गोपा इति भवतु गोपा गोपा इति तत्र न दत्तं सिद्धान्तकौमुदौ वर्तते गोपा इत्यपि भवति गोपी गोपालिका गोपा रूपत्रयं वर्तते।